इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। विकसित भारतस्य दिशि सार्वजनिक क्षेत्रस्य बैंकेषु तत्सम्बद्ध परिष्काराणाम् अथ भाविस्वरूपस्य च समीक्षायै प्रशासनम् उच्चस्तरीय समितेः निर्माणं करिष्यति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य उक्तवान् यत् मोदी प्रशासनेन स्वातन्त्र्य दिवसात् पूर्वम् ISI इत्यनेन समर्थितं शाहजाद भट्टी आतंकिजालं ध्वस्तीकृतम्। शिक्षामन्त्री प्रह्लाद जोशी निर्धारित परीक्षा कार्यविधेः कठोरतया अनुपालनं सुनिश्चेतुम् अधिकारिभिस्सह उपवेशनं कृत्वा निर्देशान् प्रदत्तवान्। भारतेन स्वीये अध्यक्षतावसरे ब्रिक्स सहयोगे जनकेन्द्रिता मानवता प्रधाना च दृष्टिः पुनः प्रकटिता। अपि च BWF बैडमिंटन विश्वस्पर्धा नवदिल्ल्यां प्रारब्धा। भारतस्य MR अर्जुन हरिहरन अंसा करुणन इत्येतयोः पुरुषयुगलं द्वितीयचरणे प्रविष्टम्। अथ वार्ताः विशदीकृत्य। विकसित भारतस्य लक्ष्य प्राप्तये सर्वकारेण शीघ्रमेव वित्तकोष क्षेत्रे काचित् उच्चाधिकार समितिः निर्मास्यते। केन्द्रीय वित्तमन्त्री निर्मला सीतारामन इत्येषा अद्य नवदिल्ल्यां द्विदिवसीय सार्वजनिक क्षेत्रीय बैंक सम्मेलनस्य उद्घाटनं कृत्वा एतत् घोषितवती। सा प्रतिपादितवती यत् एषा समितिः विविधविषयान् विचार्य वित्तकोषीय परिष्काराणां भाविदिशं निर्धारयिष्यति। वित्तमन्त्रिणा आशा प्रकटीकृता यत् अस्मिन् सम्मेलने सञ्जातानां परिचर्चानां निष्कर्षाः वित्तकोषाणां भाविभूमिकायाः विषये संस्तुतिनिर्माणे च समित्यै महत्वपूर्णान् दृढपरामर्शान् प्रदास्यन्ति। सा न्यगादीत् यत् भारतीय वित्तकोषाः सम्प्रति सुदृढस्थितौ सन्ति, यत्र अनुत्पादक परिसम्पत्तयः स्वकीय न्यूनतमस्तरे वर्तन्ते। या स्थितिः अग्रे परिष्काराणां कृते दृढाधारं प्रदास्यति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य स्पष्टीकृतवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः कुशलनेतृत्वे सर्वकारेण स्वतन्त्रता दिवसात् पूर्वम् ISI पोषितस्य शहजाद भट्टी आतंकसमूहस्य समूलनाशो विहितः। सः असूचयत् यत् सुरक्षाबलैः 200+ सदस्याः निगृहीताः अथ तेषां राष्ट्रविरोधि विध्वंसकाक्रमणानां योजनाश्चापि विफलीकृताः। एकस्मिन् सामाजिक सञ्जालीय सन्देशे गृहमन्त्रिणा प्रतिपादितं यत् सुरक्षाबलैः 14 राज्येषु विविधेषु स्थानेषु समन्वित अभियानानि सञ्चाल्य अयम् आतंकवादः ध्वस्तीकृतः। एतत्तावत् आतंकवादमभिव्याप्य भारतस्य असहिष्णुतायाः उत्कृष्टम् उदाहरणं वर्तते। सः प्रतिपादितवान् यत् तेषां पक्षतः हस्तविस्फोटकानि, ID विस्फोटकयन्त्राणि, भुशुण्डिकाः अथ च अन्वीक्षणयन्त्राणि च स्वायत्तीकृतानि। श्रीशाहः संयोजितवान् यत् एतत् आतंकजालम् अनेकेषु राष्ट्रविरोधि आतंकीकृत्येषु संलिप्तम् आसीत्। शिक्षामन्त्री प्रह्लाद जोशी अद्य नवदिल्ल्याम् उच्चशिक्षाविभागस्य सचिवेन राष्ट्रियपरीक्षासंस्थायाः महानिदेशकेन अथ अन्यैः वरिष्ठाधिकारिभिः सह उपवेशनम् अकरोत्। उपवेशने मन्त्रिणा निर्दिष्टं यत् निर्धारितानां परीक्षामानदण्डानां दृढतया अनुपालनं भवेत्। सः गोपनीय कार्यसंरचना, पृथक्कृत प्रकोष्ठाः, अन्तर्जाल सम्पर्करहितानि उपकरणानि अपि च विद्युदुपकरण निक्षेपमानदण्डः इत्यादीनां सम्यक् क्रियान्वयनाय आदिशत्। संस्था सर्वविधानां परीक्षाप्रक्रियाणां गभीरलेखापरीक्षां कर्तुम् एवं च परिष्कारपदक्षेपाणां प्रतिवेदनं समर्पयितुं निर्दिष्टा। उपवेशनावसरे अधिकारिभिः मन्त्रिणः समक्षं सद्यो जातानां घटनानां पृष्ठभूमौ सम्पूर्णव्यवस्थायाः परिष्कारसन्दर्भे राष्ट्रियपरीक्षासंस्थया गृहीतानां परिष्कारात्मकपदक्षेपाणां विवरणं प्रकटीकृतम्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाष्यतन्त्रांशे अपि समुपलब्धो भविष्यति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य उत्तराखण्डे कुमाऊं क्षेत्रस्य सीमांत ग्रामेभ्यः आगतेन छात्रसमूहेन सह मेलनम् अकरोत्। एषः छात्रसमूहः राष्ट्रिय एकता यात्रायाः अंगतया राष्ट्रपति भवने समागतः। उपराष्ट्रपतिः सीपी राधाकृष्णन् इत्यसौ अद्य प्रतिपादितवान् यत् कृत्रिम बुद्धिमत्तायाः अथ च तीव्रगत्या विकसमानायाः प्रौद्योगिक्याः युगे उपाधिप्राप्तिः शिक्षायाः अन्तः नास्ति, अपि तु निरन्तर अनुकूलजीवनस्य नूतनारम्भः वर्तते। सः अद्य तमिलनाडुराज्यस्य तिरुवारूर्नगरे तमिलनाडु केन्द्रीयविश्वविद्यालयस्य 11वें दीक्षान्तसमारोहे सम्बोधनं कुर्वन् आसीत्। उपराष्ट्रपतिना 14,2000 वर्षादारभ्य भारतस्य शैक्षणिक आधारभूतसंरचनायाः अभूतपूर्वः विस्तारः रेखाङ्कितः। सः समग्रे देशे 16 IIT संस्थानानाम्, 8 केन्द्रीय विश्वविद्यालयानाम्, 8 IIM संस्थानानाम् अथ च 12 नूतन एम्स चिकित्सालयानां स्थापनायाः विषये उल्लिखितवान्। सः समाजे निर्धनताम् अज्ञानतां च दूरीकर्तुं शिक्षां परमसाधनत्वेन वर्णितवान्।
I humbly request all of you to keep the nation first, Rashtra Pradham. I encourage you all to become the creators rather than consumers of knowledge, innovators rather than imitators, and leaders rather than followers. I also urge each one of you to become ambassadors of healthy living, responsible choices, and social awareness, helping to build communities free from the menace of substance abuse. Always say no to drugs.
प्रधानमन्त्री नरेन्द्र मोदी पश्चिम बंगालस्य वीरभूमस्थले सञ्जाते भीषणाग्निकाण्डे जातां प्राणहानिमालक्ष्य अनुशोचितवान्। एकस्मिन् सामाजिक सञ्चारपटलीय सन्देशे सः शोकसंतप्त कुटुम्बेभ्यः सान्त्वनां प्रायच्छत्। प्रधानमन्त्रिणा आहतानां शीघ्र स्वास्थ्यलाभाय अपि प्रार्थना कृता। सः आश्वासितवान् यत् स्थानिक प्रशासनं दुर्घटनाग्रस्तेभ्यः साहाय्यं प्रदातुं सर्वविधप्रकारेण प्रयतते। प्रधानमन्त्री राष्ट्रिय सहायता कोषात् मृतकानां परिजनेभ्यः 102,00,000 अथ च व्रणितेभ्यः 50,000 अनुग्रह धनराशेः प्रघोषणं कृतम्। भारतं प्रधानमन्त्रिणः नरेन्द्र मोदिनः परिकल्पनया निर्देशितां जनकेन्द्रितां मानव प्रधानां च दृष्टिं प्रति स्वप्रतिबद्धतां पुनः प्राकटयत्। विदेशमन्त्रालयस्य आर्थिक सम्बन्ध सचिवः सुधाकर दलेला इत्येषः अद्य उक्तवान् यत् भारतेन स्वीय ब्रिक्स इत्यस्य अध्यक्षतावधौ सामूहिक प्रयत्नानां केन्द्रे जनाः स्थापिताः। नवदिल्ल्याम् आयोजितम् अस्य वर्षस्य ब्रिक्स नागरिक मञ्चं सम्बोधयन् असौ एतत् उक्तवान्। असौ अवदत् यत् अध्यक्षतावसरे विभिन्नेषु नगरेषु 50,000-300,000 उपवेशनानि सम्पन्नानि, यैः विभिन्नेषु क्षेत्रेषु महत्वपूर्णाः परिणामाः प्राप्ताः। असौ अग्रे उक्तवान् यत् एतैः उपवेशनैः ब्रिक्स इत्यस्य 3 आधारस्तम्भानां राजनैतिकसुरक्षासहयोगः, वित्तीयसहयोगः, प्रतिजनमध्ये पारस्परिकसहभागिता चेत्येतेषां मध्ये परस्परसहयोगः इतोपि सुदृढः अभवत्। अस्य वर्षस्य ब्रिक्स नागरिकमञ्चम् इत्यस्य विषये श्रीदलेला उक्तवान् यत् अस्मादायोजनात् प्राप्ताः परामर्शाः अस्मिन् वर्षे आयोज्यमानाय ब्रिक्स नेतृणां शिखरसम्मेलनाय उपयोगिनः भविष्यन्ति। BWF बैडमिंटन विश्व स्पर्धायां भारतीय युगलं MR अर्जुनः, सहैव हरिहरन अम्साकरुणं च नवदिल्ल्यां पुरुषयुगलवर्गस्य द्वितीयचरणे प्रविष्टवन्तौ। इति वार्ताः।